विहिसोतोरसक्षतनेन्द्रम् देवममम् सदा यत्रामदद्रशाकपिरर्यः पुष्टेषु मत्सखा विश्वस्मादिन्द्र उत्तरः पराही इन्द्रधावसि वृषाकपेरदिव्यधेः नो अह प्रविन्दस्यन्यत्र सोमपीतजे विश्वस्मादिन्द्र उत्तरः किमयन्द्वाम् वृषाकपिश्चकार हरितो मृगः यस्मा इरस्य सीदुन्वा अर्यो वा पुष्टिमद्वसु विश्वस्मादिन्द्र उत्तरः यमिमन्दम् वृषाकपिम् व्रियमिन्द्राभिरक्षसे श्वान्वस्य जम्भिषदपि कर्णे वराहयुर्विश्वस्मादिन्द्र उत्तरः प्रियातष्टानि मे कपिर्व्यक्ताव्यदोदुषत शिरोऽन्वस्य राविषन्न सुखम् दुष्कृते भुवम् विश्वस्मादिन्द्र उत्तरः न मत्स्त्रीसु भसत्तरा न सुयाशुतरा भुवत न मत्प्रतिज्यमेयसे न सख्यद्यमेयसे विश्वस्मादिन्द्र उत्तरः उमे अम्बसुलाभिके जथे वाङ्ग भविष्यते भसन्मे अम्बसख्य मे शिरो मे वीवहृष्यति विश्वस्मादिन्द्र उत्तरः किं सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने किं शोरपत्निनस्तमभ्यमेषि वृषाकपिम् विश्वस्मादिन्द्र उत्तरः अवीरामिव मामयम् शरारुरभिमञ्जत् उदाहमस्मि वीरिणीन्द्रपत्ने मरुत्सखा विश्वस्मादिन्द्र उत्तरः सम्भोत्रम् स्म पुरा नारे समनम् वावगच्छति वेधारतस्य वीरिणीन्द्रपत्ने महीयते विश्वस्मादिन्द्र उत्तरः इन्द्राणि मासु नारिषु सुभगा महमश्रवम् न ह्यस्या अपरम् जन जनसा मरदेवधर्विश्वस्मादिन्द्र उत्तरः नाहमिन्द्राणिरारणसख्युर्वृषाकपेरृत यस्येदमप्यम् हविः प्रियम् देवेषु गच्छति विश्वस्मादिन्द्र उत्तरः वृषाकपाजिरेवति सुपत्र आदुसुस्तुषे घसत्त इन्द्र उक्षणः प्रियङ्काचित्करम् हविर्विश्वस्मादिन्द्र उत्तरः उक्ष्णो हि मे पञ्चदश साकम् वचन्ति विंशतिम् उदाहमद्विपेप इदुभागुक्षे वृणन्ति मे विश्वस्मादिन्द्र उत्तरः वृषभो न दिग्मशृङ्गोऽन्तर्योधे शुरोरुवत मन्थस्त इन्द्रशम् हृदे जन्ते सुनोदिभावजुर्विश्वस्मादिन्द्र उत्तरः न शेषेजस्य रम्भतेऽन्तरा सख्या आकप्रद सेदी शेजस्य रोमशन्निषेदुषो विजृम्भते विश्वस्मादिन्द्र उत्तरः न शेषेजस्य रोमशन्निषेदुषो विजृम्भते सेदी शेजस्य रम्भतेऽन्तरा सख्या आकप्रद्विश्वस्मादिन्द्र उत्तरः अजमिन्द्रवृषाकपिः परस्वन्दम् हतम् विदत असिम् सोनान्नवम् चरुमादेधस्या न आसितम् विश्वस्मादिन्द्र उत्तरः अजमेऽपि विचाकषद्विचिन्वन्दासमार्यम् पिबामिपाकसत्मनोऽभिधीरमचाकषम् विश्वस्मादिन्द्र उत्तरः धन्वचयत्क्रन्दत्रम् जगति स्वित्ताभियोजना मेदीयस वृषाकपेस्तमे हि गृहाम् उपविश्वस्मादिन्द्र उत्तरः पुनरेहि वृषाकपे सुमिता कल्पयावहै य एष स्वप्ननम् शनोऽस्तमेषि पथा पुनर्विश्वस्मादिन्द्र उत्तरः यदुदम् च वृषाकपे गृहमिन्द्राजगन्तन क्वा अस्य पुल्वघो मृगः कमगञ्जनजोपनो विश्वस्मादिन्द्र उत्तरः परशरः नाम मानवे साकम् स सोमविंशतिम् भद्रम् फलद्यस्या अभोद्यस्या उदरमामयद्विश्वस्मादिन्द्र उत्तरः